ओम श्री कृष्ण परब्रह्मणे नमः। श्रीमद् भगवद्गीता अथ पञ्चदशोऽध्यायः पुरुषोत्तम प्राप्ति योगः। श्री भगवानुवाच, ऊर्ध्वमूलमदः शाकम् अश्वत्थम् प्राहुरव्ययम् छन्दांसि यस्य पर्णानि यस्तम् वेद स वेदवित्। अधश्चोर्ध्वम् प्रसृताः सस्य शाखाः गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके। न रूपमस्येह ततोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। अश्वत्थमेनम् सुविरूढमूलम् असङ्गशस्त्रेण दृढेन चित्वा ततः पदम् तत्परिमार्गितव्यम् यस्मिन् गता न निवर्तन्ति भूयः। तमेव चाद्यम् पुरुषम् प्रपद्ये यतः प्रवृत्तिप्रसृता पुराणी। निर्माणमोहाजितसङ्गदोषाः अध्यात्मनित्या विनिवृत्तकामाः। द्वन्द्वैर्विमुक्ताः सुखदुःखसङ्ग्नैः गच्छन्त्यमूढा पदमव्ययम् तत्। न तद्भासयते सूर्यः न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमम् मम। ममैवांशो जीवलोके जीवभूतः सनातनः। मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति। शरीरम् यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः। गृहीत्वैतानि संयाति वायुर्गन्धानि वाशयात्। श्रोत्रम् चक्षुस्पर्शनम् च रसनम् घ्राणमेव च। अधिष्ठाय मनश्चायम् विषयानुपसेवते। उत्क्रामन्तम् स्थितम् वापि भुञ्जानम् वा गुणान्वितम्। विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः। यतन्तो योगिनश्चैनम् पश्यन्त्यात्मन्यवस्थितम्। यतन्तोऽप्यकृतात्मानः नैनम् पश्यन्ति चेतसः। यदादित्यगतम् तेजः जगद्भासेतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्। गामाविश्य च भूतानि धारयाम्यहमोजसा। उष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः। अहम् वैश्वानरो भूत्वा प्राणिनाम् देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नम् चतुर्विधम्। सर्वस्य चाहम् हृदि सन्निविष्टः मत्तः स्मृतिर्ज्ञानमपोहनम् च। वेदैश्च सर्वैरहमेव वेद्यः वेदान्तकृद्वेदविदेव चाहम्। द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य विवर्तव्य ईश्वरः। यस्मात्क्षरमतीतोऽहम् अक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रदितः पुरुषोत्तमः। यो मामेवमसम्मूढः जानाति पुरुषोत्तमम्। स सर्वविद्भजति माम् सर्वभावेन भारत। इति गुह्यतमम् शास्त्रम् इदमुक्तम् मया नघ। एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत। ओम् तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमप्राप्तियोगो नाम पञ्चदशोऽध्यायः।